एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः अद्य किरातसमुदायेन उदौली पर्व सनातन धर्मावलम्बिभिः धान्य पूर्णिमोत्सवश्च भव्यरूपेण समायोज्येते। अद्यैव योमरी पुन्नी ज्यापदिवसश्च विशेषतो नेवार समुदायेन समायोज्यते। मार्गशीर्ष शुक्ल पक्षस्य पूर्णिमायां तिथौ एकस्मिन्नेव दिने सनातन धर्मावलम्बिभिः धान्य पूर्णिमा किरात धर्मावलम्बिभिः उदौली पर्व नेवार समुदायेन योमरी पुन्नी ज्यापो दिवसश्चेति समायोज्यमानाः वर्तन्ते। अस्यां तिथौ सनातन धर्मावलम्बिभिर्जनैः नूतनान्न भोजनस्य पर्वत्वेन समाद्रियते। मार्गशीर्ष मासे क्षेत्राद् आनीतं नूतनं धान्यम् अस्मिन् दिने कुलदेवतायै भगवते च समर्प्यते। तदनन्तरमेव तदन्नं भोजनाय योग्यं भवतीति विश्वासे धान्य पूर्णिमा पर्व समाद्रियते। तथैव अस्मिन्नेव दिने समाद्रितम् उधौली पर्व किरात धर्मावलम्बिनां सर्वापेक्षया महत्वपूर्णं पर्व वर्तते। वैशाख शुक्ल पूर्णिमायाः दिने आतापस्य शमनाय शीतक्षेत्रमन्विष्य उपरि पर्वत प्रदेशं प्रति गताः पक्षिणः वन्यजन्तवश्च अस्यां मार्ग शुक्ल पूर्णिमायां शैत्य शमनाय पुनः आतापक्षेत्रमन्विष्य अधः समतल भूमि प्रदेशं प्रति आगच्छन्ति इति च विश्वासोऽस्ति। तथैव अस्मिन्नेव दिने काष्ठमण्डपोपत्यकायाम् अन्यत्र च नेवार समुदायेन योमरी पुन्नी पर्व समादीयते। अस्यां तिथौ नेवार समुदायेन धान्यतण्डुलानां पिष्टं कृत्वा तेन पृष्ठेन योमरी नामकं मिष्टान्नं निर्माय देवतायै समर्प्य स्वीक्रियते इत्यतः नेपालभाषायां दिनमिदं योमरी पुन्हीति नाम्ना प्रथितं वर्तते। अवसरेऽस्मिन् राष्ट्रपतिना रामचन्द्र पौडेलेन शुभकामना सन्देश प्रदत्तोऽस्ति। शुभकामना सन्देशे राष्ट्रपति पौडेलः धान्य पूर्णिमा उदौली सदृशै पर्वोत्सवैः सामाजिकं पारिवारिकं च मेलनं विधातुं समुदायेषु परस्परं सम्बन्धं सुमधुरं कारयितुं च सहयोगो मिलतीति विश्वासं प्रकटयति। प्रधानमन्त्री केपी शर्मा ओली शिक्षायाः माध्यमेन देशः आत्मनिर्भरताम् प्रति अग्रेसरतीति विश्वासं व्यनक्ति। काभ्रेपलाञ्चोक जनपदस्य धुलीखेलवर्तिनी काष्ठमण्डप विश्वविद्यालयस्य त्रिंशं दीक्षान्त समारोहं सम्बोधयन् प्रधानमन्त्री ओली वृत्तिपार्जनान्वेषणापेक्षया वृत्तिपार्जनक्षमायाः आत्मनिर्भरतायाम् आद्यतायाः शिक्षायाः प्रदानस्य नीतिमवलम्ब्य वर्तमान सर्वकारः अग्रेसरन् अस्तीति अवोचत्। विश्वविद्यालयस्य कुलपतिश्च प्रधानमन्त्री ओली अध्ययनेन सह वृत्त्युपार्जनं संयोजयन् आत्मनिर्भरतायै देशस्य आदर्शभूतैः विश्वविद्यालयैः सह सहकार्यं समन्वयं च विधाय कार्यं करिष्यते इति प्रावोचत। कार्यक्रमे भारतस्य पटनावर्तिनी इण्डियन इन्स्टिच्यूट अफ टेक्नोलोजी संस्थायाः निर्देशकः प्राध्यापकः त्रिलोकनाथ सिंह नेपाल भारतयो ऐतिहासिक भौगोलिकस्य सम्बन्ध असाधारण स्थिति इत्यतः भारतस्य शिक्षाया अनुसन्धानस्य च क्षेत्रेषु व्यापारस्य शिक्षायाः अनुसन्धानस्य च क्षेत्रेषु सम्भूतस्य पारस्परिक सम्बन्धस्य नवर प्रवर्तनस्य च क्षेत्रे द्वयोः देशयोः सहकार्येण संयुक्त प्रगतिः सुदृढः विकासमार्गश्च प्रशस्तीकृतौ स्तः इति उदयरयत। दीक्षान्त समारोहे विश्वविद्यालयस्य विभिन्नानां संकायानां एक सहस्राणि शतद्वयं पञ्चषष्टिश्च विद्यार्थिनः दीक्षिताः सन्ति। उपराष्ट्रपते रामसाय प्रसाद यादव कथयति काष्ठमण्डप महानगरपालिकया महानगरवासिभ्य गृह प्राङ्गणे एव सर्वकारो स्थिति अनुभावितं वर्तते। त्रिंशस्य महानगर दिवसस्य अवसरे ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे उपराष्ट्रपतिः यादवः अगदत् महानगरेण मतदातृभ्य प्रदीयमाना सेवा अन्य स्थानीय सर्वकाराणां कृते अनुकरणीया अस्ति। उपराष्ट्रपतिः यादवः नगरीय सुव्यवस्थापनं नदी जल प्रणाली सुधार, हरित प्रवर्धनम, मठ मन्दिर आदि सम्पदाम संरक्षणम, पुष्करिणीनाम पुनःस्थापना, एकीकृत नगरीय विकासश्चेत् कार्याणि महानगरेण विहितानि इति कृत्वा प्रशंसाम करोत्। कार्यक्रमे काष्ठमण्डप महानगरस्य प्रमुख बालेन्द्र शाह सप्तसप्ततेः एव जनपदानां नागरिकाणां कृते वसितुं योग्यस्य महानगरस्य निर्माणं प्रति स्वस्य ध्यानं केन्द्रितम् अस्ति इति प्रावोचत्। उपप्रमुखा सुनीता डंगोलः प्रावोचत् पूर्वाधार विकासस्य कार्यं महानगरेण प्राथमिकतायां स्थापितमस्ति। काष्ठमण्डप महानगरपालिकया त्रिंशस्य वार्षिकोत्सवस्य अवसरे विभिन्न क्षेत्राणां महानुभावाः प्रतिजनम् एकलक्षेण 50,000 रूप्यकैः सम्मानिताः वर्तन्ते। तदवसरे लोकगायन क्षेत्रात् कुमार बस्नेत, चित्रकला क्षेत्रतः किरण मानन्दर, स्वास्थ्य क्षेत्रात् डॉ अरूण सायमी, राजनीतितः सामाजिक क्षेत्रात् च महानगरस्य पूर्व प्रमुख पीएल सिंह, कला क्षेत्रात् नरेन्द्र कंक्षाकारः, साहित्य क्षेत्रात् मल्ल के सुन्दर च सम्मानिताः वर्तन्ते। उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह भासते पूर्वाधार विकास निर्माण सम्बद्धं कार्यं प्राथमिकतायाः आधारेण अग्रे वर्धते। भरतपुर विमानस्थले पूर्वे द्युः पत्रकारैः भाषमाणः उपप्रधानमन्त्री सिंह विदेहे आवश्यक प्रक्रियायाश्च अनुसारेण प्राथमिकतायाः आधारेण विकास निर्माण सम्बद्धानि कार्याणि अग्रे प्रवर्तन्ते इति असूचयत। इति समाचारः।